अथ वैदिकराष्ट्रगीतम् ऋग्वेदः ॐ संसमिद्युवसे वृषन्नग्ने विश्वान्यर्या इळस्पदे समिध्यसे स नो वसून्याभर सङ्गच्छध्वं संवदध्वं सं वो मनांसि जानताम् देवाभागं यथा पूर्वे सञ्जानाना उपासते समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम् समानं मन्त्रमभिमन्त्रयेव समानेन वो हविषा जुहोमि समानीव आकूतिः समाना हृदयानि वः समानमस्ति तो वो मनो यथा वस्सु सहासति ध्रुवाद्योर्ध्रुवा पृथिवी ध्रुवासः पर्वता इमे ध्रुवं विश्वमिदं जगद् ध्रुवो राजा विषामयम् ध्रुवन्ते राजा वरुणो ध्रुवं देवो बृहस्पतिः ध्रुवन्त इन्द्रश्चाग्निश्च राष्ट्र त्रन्धारयतान् ध्रुवम् ॐ
अथ कृष्णयजुर्वेदः
अपवा एतस्माच्छ्रीराष्ट्रं क्रामति योऽश्वमेधेन यजते ऊर्ध्वामेनामुच्छयतादित्याः श्रीर्वैराष्ट्रमश्वमेधः श्रियमेवास्मै राष्ट्रमूर्ध्वमुच्छ्रयति वेणुभारं गिरा विवेत्याः राष्ट्र त्रं वै भारः राष्ट्रमेवास्मै परियूहति अथास्यामध्यमेधतामित्याः श्रीर्वैराष्ट्रस्य मध्यम् श्रियमेवावरुन्धे शीते वाते पुनन्निवेत्याः क्षेमो वै राष्ट्रस्य शीतो वातः क्षेममेवावरुन्धे ॐ
अथ शुक्लयजुर्वेदः
हरिः ॐ सूर्जतवाचासस्थाराष्ट्रादा राष्ट्रं मे दत्तस्वाहा सूर्जतवाचासस्थाराष्ट्रादा राष्ट्रामामुखमयि दत्ता सूर्जावर्चासस्थाराष्ट्रादा राष्ट्रं मे दत्तस्वाहा सूर्जावर्चासस्थाराष्ट्रादा राष्ट्रामामुखमयि दत्ता मान्दास्थाराष्ट्रादा राष्ट्रं मे दत्तस्वाहा मान्दास्थाराष्ट्रादा राष्ट्रामामुखमयि दत्ता व्राजक्षीतस्थाराष्ट्रादा राष्ट्रं मे दत्तस्वाहा व्राजक्षीतस्थाराष्ट्रादा स्थाराष्ट्रादा राष्ट्रामामुखमयि दत्ता वासास्थाराष्ट्रादा राष्ट्रं मे दत्तस्वाहा वासास्थाराष्ट्रादा राष्ट्रामामुखमयि दत्ता साविष्ठास्थाराष्ट्रादा राष्ट्रं मे दत्तस्वाहा साविष्ठास्थाराष्ट्रादा राष्ट्रामामुखमयि दत्ता सकवारीस्थाराष्ट्रादा राष्ट्रं मे दत्तस्वाहा सकवारीस्थाराष्ट्रादा राष्ट्रामामुखमयि दत्ता जानावृतस्थाराष्ट्रादा राष्ट्रं मे दत्तस्वाहा जानावृतस्थाराष्ट्रादा राष्ट्रामामुखमयि दत्ता विश्वाभृतस्थाराष्ट्रादा राष्ट्रं मे दत्तस्वाहा विश्वाभृतस्थाराष्ट्रादा राष्ट्रामामुखमयि दत्तापाः स्वराजस्थाराष्ट्रादा स्थाराष्ट्रादा राष्ट्रामामुखमयि दत्ता माधुमातीर्माधुमातीभिः प्रचियन्तां माहिच्छतरं क्षत्रियाय वन्नवाना आनाधृष्टाः सीदाता साहौ जासो माहिक्षतरं क्षत्रियाय दधातीः हरिः ॐ
अथ अथर्ववेदः ॐ भद्रमिच्छन्तर्षाय स्वर्वेदस्तपो दीक्षामोपनिषे दुरग्रे ततो राष्ट्रं बलमोजश्च जातं तदस्मै देवा उपसन्नामन्तो सहृदयं सां मनस्यमविद्वेषं कृणोमि वः अन्यो अन्यमभिहर्यत वत्सञ्जातमेवाग्न्या अनुव्रतः पितुः पुत्रो मात्रा भवतु सम्मानाः जापत्ये मधुमतीं वाचम् वदतु शन्ति वाम् मा भ्राता भ्रातारन्द्विक्षन् मा स्वसारमुत स्वसा सम्यञ्च सौराता भूत्वा वाचम् वदत भद्रया येना देवा न वियन्ति नो चाविद्विषते मिथः तत्कृण्मो ब्रह्मावो गृहे संज्ञानं पुरुषेभ्यः ज्यायस्वन्तश्चित्तिनो माव्योष्टसं राधयन्तः सधूराश्चरन्तः अन्यो अन्यस्मै वल्गु वदन्त एता सद्धरीचीनान्वः सम्मानसस्कृणोमि सामानि प्रपासहवोन्न भागः सामाने योक्त्रे सहवो युनज्मि सम्यञ्चोऽग्निम् सापर्यतारानाभिमिवाभिताः सद्धरीचीनान्वः सम्मानसस्कृणोम्येकश्नुष्टीन् संवनानेन सर्वान् देवा इवामृतं रक्षामाणाः सायं प्रातस्सौ मनसो अस्तु